सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तम् तस्मै पाणिनये नमः. येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नम् तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. अस्तु, सूत्राणां बलावलम् इति पाठः पठ्यमानः अस्ति. अस्मिन् अवसरे पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा उच्यते. पूर्वपरनित्यसूत्राणां प्रसङ्गे चिन्तनं कृतवन्तः वयम्. अन्तरङ्गप्रसङ्गे अपि चर्चा जायमाना आसीत्. अन्तरङ्गं द्विविधमस्ति, पूर्वोपस्थितनिमित्तकान्तरङ्गम् अपरनिमित्तकम् अन्तरङ्गम्. प्रथमप्रकारक अन्तरङ्गप्रसङ्गे ह्योन इति शब्दं स्वीकृत्य तस्य पदस्य निर्माणावसरे सूत्राणां बलाबलचिन्तनं कथं भवति इति वयं दृष्टवन्तः. तत्र इको एणिचि इति एकं सूत्रं मध्ये आयाति. इको एणिचि सूत्रस्य कृते यद् निमित्तम् ऊकारः अस्ति तत् निमित्तं बहिरङ्गसूत्रनिमित्तात् पूर्वम् उपस्थितम् अस्ति. अपि च बहिरङ्गसूत्रनिमित्तसमुदायस्य मध्ये अन्तर्भूतम् अस्ति इत्यतः तस्य नाम पूर्वोपस्थितनिमित्तक अन्तरङ्गम्. स्योनापदस्य रूपसाधनवेलायाम् एतत् चिन्तनं कृतवन्तः. द्वितीयप्रकारक अन्तरङ्गमस्ति अपरनिमित्तकम् अन्तरङ्गम्. तस्मिन् प्रसङ्गे आदे च उपदेशे शिति इति सूत्रं स्वीकृत्य परिशीलनं कुर्वन्तः स्मः. अपरनिमित्तकत्वं सूत्रेषु कथं सिध्यति इति प्रश्ने सति, यस्य सूत्रस्य परनिमित्तं नास्ति तत् सूत्रम् अन्तरङ्गं भवति. तस्मिन् सूत्रे अपरनिमित्तकत्वमस्ति इति वक्तव्यं भवति. आदे च उपदेशे शिति इति सूत्रम् उदाहरणत्वेन स्वीकृतमस्ति. सूत्रार्थः कः इति प्रश्ने सति, उपदेशावस्थायाम् एजन्तधातोः आत्वं भवति, षित् प्रत्ययपरे न भवति. अस्मिन् सूत्रे अशीति इति शब्दः अस्ति, तस्य अर्थप्राधान्यमस्ति. अशीति इति शब्दस्य महत्त्वमस्ति. अस्मिन् सूत्रे चत्वारि पदानि सन्ति, आत् एचः उपदेशे अशीति. आत् प्रथमान्तम्, एचः षष्ट्यन्तम्, उपदेशे विषयसप्तमी, अशीति इत्यपि सप्तम्यन्तं पदम् अस्ति. इत्युक्ते उपदेशावस्थायाम् एजन्तधातोः आत्वं भवति, षित् प्रत्ययः अस्ति चेत् न भवति. इत्युक्ते धातोः परम् अशित् प्रत्ययः अस्ति चेत् आत्वं न भवति. उपदेशावस्थायां बहवः एजन्तधातवः सन्ति, ध्यै, गै, म्लै एतादृशधातवः एजन्तधातवः. एजन्तः इति कथनेन एच् इति प्रत्याहारः खलु, एच् प्रत्याहारे ए ऐ ओ औ एते चत्वारः वर्णाः सन्ति एच् प्रत्याहारे. अपि च उपदेशावस्थायां यस्य धातोः अन्ते एच् प्रत्याहारस्थवर्णः अस्ति तस्मात् परं निमित्तं नास्ति चेदपि आत्वं भवति, अशित् प्रत्ययपरे न भवति इति अर्थः अस्ति. अत्र अशीति इति पदस्य महत्त्वम् अस्ति इति उक्तवती खलु. अशीति इति सप्तम्यन्तं पदमस्ति. अस्मिन् पदे नञ् तत्पुरुषसमासः अस्ति. विग्रहवाक्यं वक्तव्यं चेत् नाशित् तस्मिन् इति वक्तव्यम् अस्ति अशीति इत्यत्र. नञ् तत्पुरुषसमासः भिन्नः, नञ् बहुव्रीहिः भिन्नः. नञ् तत्पुरुषसमासस्य प्रसङ्गे नञ् इति शब्दस्य षड् अर्थाः सन्ति, किन्तु व्याकरणे अर्थद्वयमेव स्वीकृतम् अस्ति. तत्र नञ् इति शब्दस्य अर्थद्वयं किम् इत्युक्ते पर्युदासप्रतिषेधार्थः, प्रसज्जप्रतिषेधार्थः इति अर्थद्वयं वर्तते अस्मिन् सूत्रे. इत्युक्ते अस्य सूत्रस्थं पदम् अशीति अस्ति खलु, सूत्रस्थं पदम् अशीति, तस्मिन् नञ् इति शब्दस्य प्रसज्जप्रतिषेधार्थः स्वीकृतः इति काशिकायाम् उक्तमस्ति. आदे च उपदेश शिति इति सूत्रस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यं चेत्, प्रथमं वाक्यमस्ति उपदेशे एजन्तधातोः आत्वं भवति इति प्रथमवाक्येन तस्य प्रतिपादनं भवति. द्वितीयवाक्येन किमुच्यते इत्युक्ते उपदेशे एजन्तधातोः षित् प्रत्ययपरे आत्वं न भवति इति द्वितीयार्थः अस्ति. अनयोः वाक्ययोः मध्ये अर्थभेदः अस्ति. अस्मिन् सूत्रे प्रसज्जप्रतिषेधः अस्ति इत्युक्ते अशिति इति शब्दस्य प्रसज्यप्रतिषेधार्थः अस्ति अस्मिन् सूत्रे. नञ् इति शब्दस्य अशिति इति शब्दे स्थितस्य नञ् इति शब्दस्य अर्थः पर्युदासार्थः नास्ति. पर्युदासः नाम किम् इत्यपि ज्ञातव्यं खलु. उदाहरणार्थम् अश्वम् आनय इति अहं वदामि चेत् यः कोऽपि भवतु सः अश्वम् आनयति. किन्तु अनश्वम् आनय इति अहं पृच्छामि चेत् तदा अश्वं विना कोऽपि अन्यपशुम् आनयतु इति अर्थः तत्र अस्ति. इत्युक्ते अन्य कोऽपि जन्तुः अश्वसदृशः किन्तु अश्वं विना अश्वं विहाय अन्यं जन्तुम् आनयतु इति अर्थः तत्र आयति खलु. तादृश अर्थः सिद्ध्यति चेत् तत्र पर्युदासः अस्ति इति वक्तव्यमस्ति. पर्युदासार्थं सादृश्यम् अपेक्षितम् इत्युक्ते अश्वसदृशः जन्तुः अपेक्षितः इति तत्र अर्थः अस्ति. एवमेव अस्मिन् सूत्रे अशिति इति पदमस्ति खलु. अशित् इति कथनेन षित् विना अन्यप्रत्ययः अस्ति चेत् कार्यं भवति इति अर्थः तत्र आयाति. तादृशार्थः उच्यते चेत् इत्युक्ते पर्युदासार्थः उच्यते चेत् अस्मिन् सूत्रे दोषः भवति इति काशिकायाम् उक्तमस्ति. पर्युदासः इति स अवगमनार्थमेव अब्राह्मणम् आनय इति पदं स्वीकुर्मः चेत् अब्राह्मणम् आनय इति कथनेन तस्य श्रवणेन यः कोऽपि मनुष्यः भवतु तं मनुष्यम् आनयतु किन्तु सः ब्राह्मणः न स्यात् इति अर्थः आयाति चेत् तत्र पर्युदासार्थः अस्ति इति वक्तव्यमस्ति. एवमेव अशित् इति कथनेन षित् भिन्नप्रत्ययः अस्ति चेदेव कार्यं भवति इति तादृशार्थः तत्र नास्ति. काशिकायां तदेव उक्तमस्ति. पर्युदासार्थं सादृश्यम् अपेक्षितमस्ति. एतत् सर्वं कथं ज्ञायते? यङ् लुगन्तधातूनां प्रसङ्गे एजन्तधातूनाम् आत्वं भवति यङ् लुगन्तानां प्रसङ्गे अपि. किन्तु तत्र प्रत्ययः किमपि नास्ति. प्रत्ययः नास्ति चेदपि एजन्तधातोः आत्वं भवति यङ् लुगन्तानां प्रसङ्गे. तत्र रूपाणि परिशील्य काशिकाकारैः एवम् उक्तमस्ति यत् अस्मिन् शब्दे अशिति इति शब्दे नञ् समासः अस्ति. तस्य नञ् इति शब्दस्य पर्युदासार्थः न कर्तव्यः, प्रसज्यप्रतिषेधार्थः अत्र आवश्यकः इति वैयाकरणैः उक्तमस्ति. आहत्य पर्युदासार्थं सूचयितुं तत्र सादृश्यम् अपेक्षितमस्ति. अपि च अस्मिन् सूत्रे अपरनिमित्तकत्वम् आवश्यकं खलु. आदे च उपदेशे शिति इत्यस्मिन् सूत्रे अपरनिमित्तकत्वम् आवश्यकम्. असिति इति शब्दस्य अर्थः प्रसज्यप्रतिषेधार्थः अस्ति चेदेव अपरनिमित्तकत्वं सिद्ध्यति. अशिति इति निमित्तरूपेण स्वीकुर्मः चेत् तादृश अर्थः स्वीकृतः चेत् तत्र दोषः भवति. पर्युदासार्थः स्वीकृतः चेत् दोषः भवति. अतः प्रसज्यप्रतिषेधार्थः एव स्वीकर्तव्यं. तदानीम् एव अपरनिमित्तिकत्वम् अस्मिन् सूत्रे सिद्ध्यति. अपरनिमित्तिकत्वम् अस्ति चेदेव अस्य सूत्रस्य अन्तरङ्गत्वं भवति. अन्तरङ्गत्वम् अस्ति चेदेव तस्य कार्यं प्रथमं भवति इति अत्र विषयः अस्ति. वस्तुतः प्रसज्यप्रतिषेधः पर्युदासप्रतिषेधः इति निषेधविशेषः इति वक्तव्यमस्ति. नैति शब्दस्य अर्थभेदेन एतादृशमतभेदः जायते. निषेधविशेषः अस्मिन् सूत्रे प्रसज्यप्रतिषेधार्थः एव स्वीकर्तव्यः. किमर्थं चेत् अस्मिन् सूत्रे प्रसज्यप्रतिषेधः स्वीकृतः चेदेव अत्र परनिमित्तं नास्ति, अपरनिमित्तिकत्वम् अस्ति. अस्य सूत्रस्य कार्यार्थं परनिमित्तम् अनावश्यकम् इति वक्तुं शक्यते. उपदेशावस्थायां सर्वेषाम् एजन्तधातूनाम् आत्वं भवति. अस्य कार्यार्थं किमपि निमित्तं न अपेक्षितम्. परन्तु एजन्तधातोः परं षित् प्रत्ययः अस्ति चेत् आत्वं न भवति. इत्युक्ते एजन्तधातोः परं यः प्रत्ययः अस्ति सः प्रत्ययः षित् न स्यात् इति अर्थः. इत्युक्ते अस्मिन् सूत्रे अंशद्वयं भागद्वयम् अस्ति. इत्युक्ते विध्यंशः अस्ति, निषेधांशः अपि अस्ति. विध्यंशः कः, विधि अंशः कः इत्युक्ते उपदेशावस्थायां सर्वेषाम् एजन्तधातूनाम् आत्वं भवति, परनिमित्तं नास्ति चेदपि इति विध्यंशः. निषेधांशः एजन्तधातोः परं षित् प्रत्ययः अस्ति चेत् आत्वं न भवति. इतोपि अत्र किम् अस्ति, अग्रे गत्वा वयं पठिष्यामः. अस्माकं व्याकरणे एकं सूत्रमस्ति, अर्धवत् अधातुरप्रत्ययः प्रातिपदिकम् इति एकं सूत्रमस्ति. प्रातिपदिकं नाम किम् इति वक्तुं तत् संज्ञासूत्रं ज्ञातव्यम्. अर्धवत् अधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रमस्ति. अर्धवत् अधातुः अप्रत्ययः प्रातिपदिकं भवति इति तस्य अर्थः. तस्मिन् सूत्रे पर्युदासप्रतिषेधः उच्यते, किन्तु आदेच उपदेशेशिति इत्यस्मिन् सूत्रे प्रसज्यप्रतिषेधार्थः उक्तः. अन्ततो गत्वा सारांशः कः इत्युक्ते, एकस्मिन् स्थले द्वयोः सूत्रयोः प्राप्तिः, एकत्र समकालप्राप्तिः भवति चेत् तयोः द्वयोः एकं सूत्रम् आदेच उपदेशिष्यति, अन्यत् किमपि सूत्रमस्ति चेत् तदा सूत्राणां बलाबलचिन्तनं कथं भवति इति प्रश्ने सति आदेच उपदेशिष्यति इति सूत्रस्य कृते निमित्तम् अनावश्यकं. तस्मिन् सूत्रे अपरनिमित्तकत्वम् अस्ति, किन्तु अन्यसूत्रस्य कृते निमित्तम् अपेक्षितमस्ति चेत् तस्यां दशायाम् आदेच उपदेशिष्यति इत्यस्मिन् सूत्रे अपरनिमित्तिकत्वम् अस्ति इत्यतः तत् सूत्रम् अन्तरङ्गं भवति. अन्तरङ्गं भवति इत्यतः तस्य सूत्रस्य कार्यं प्रथमं करणीयम् इति तत्र विषयः अस्ति. सूत्रस्य कार्यार्थं निमित्तं न अपेक्षितं, निषेधांशस्य कृते एव निमित्तम् अपेक्षितमस्ति अस्मिन् सूत्रे. अपरनिमित्तिकत्वात् अन्तरङ्गत्वम्, अन्तरङ्गत्वात् अस्य सूत्रस्य कार्यं प्रथमं भवति. अस्मिन्नेव प्रसङ्गे इतोपि किञ्चिदेव लिखितमस्ति, तत् पठित्वा पूर्वत्रासिद्धम् इति सूत्रं प्रति गन्तुं शक्नुमः. सि इति बिन्दुः अस्ति अस्मिन् करपत्रे. सुन्दर महोदय, भवान् पठतु.
एकं सूत्रम् औत्सर्गिकं सामान्यम् अन्यत् अपवादभूतम् अस्ति चेत् अपवादः बलवान् भवति. उदाहरणम् उपरि दत्तं वृद्धिरेचि.
अत्र एवञ्च परिभाषेन्दुशेखरे इति अपि न पठितं, तस्मात् पठतु.
एवञ्च परिभाषेन्दुशेखरे ग्रन्थकारः वदति, अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गं तत् अन्तरङ्गम्. अन्तर्भूतानि अङ्गानि अत्र अन्तर्भूतत्वं बहुविधम् अस्ति. अत्र अन्तर्भूतत्वस्य केवलं प्रकारद्वयं प्रदर्शितं, कदाचित् पूर्वोपस्थितनिमित्तकतया भवति, कदाचित् अपरनिमित्तकतया भवति, कदाचित् तदीयसमुदायमध्ये भवति, कदाचित् एकपदवर्णद्वय अपेक्षतया भवति. अत्र व्याख्यायां निमित्तानाम् अन्तर्भावश्च इत्यारभ्य लिखितम् अस्ति. अत्र परिभाषेन्दुशेखरे ग्रन्थकारः किं वदति इति लिखितम्.
परिभाषेन्दुशेखरः इति ग्रन्थः अस्ति, तस्य ग्रन्थस्य ग्रन्थकारः कः?
नागेशभट्टः.
नागेशभट्टः, सः किं वदति?
सः वदति यदि अन्तर्मध्ये बहिरङ्गशास्त्रीयमध्ये निमित्त यदि बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये यदि बहवः समुदायः अस्ति, बहिरङ्गशास्त्रीय तस्य निमित्तानां समुदायः अस्ति, तन्मध्ये अन्तर्मध्ये अन्तर्भूतानि यानि अङ्गानि अन्तर्भूतानि भवति तदेव यानि निमित्तानि अन्तर्भूतानि भवति तदेव अन्तरङ्गशास्त्रम् इति भवति.
अत्र अन्तरङ्गसूत्रस्य निर्वचनं दत्तमस्ति. अन्तरङ्गं समस्तपदमस्ति चेत् अन्तरङ्गम् इत्यत्र पदद्वयमस्ति. अन्तर् इति एकं पदमस्ति, अङ्गम् इति अन्यत् पदमस्ति. अन्तर् इत्युक्ते मध्ये, किन्तु अङ्गम् इत्युक्ते निमित्तम् इति अर्थं मनसि निधाय चिन्तनं करणीयं खलु? अत्र अन्तरङ्गसूत्रस्य निर्वचनं दत्तमस्ति. अन्तरङ्गं नाम किम् इति प्रश्ने सति, अन्तर् इत्युक्ते मध्ये, कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदाय मध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य भवन्ति तत् अन्तरङ्गशास्त्रम्.
यस्य तत् अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तत् तत् अन्तरङ्गम् तदेव अन्तरङ्गम् इति विग्रहवाक्यं लिखितमस्ति तत्र. अन्तर्भूतानि अङ्गानि अत्र बहुविधं भवन्ति. अन्तर्भूतानि अन्तानि अङ्गानि इत्युक्ते तत्र बहुविधं भवति, अत्र द्वयमेव अत्र प्रदर्शितम् अस्मिन् अस्मिन् परिच्छेदे द्विविधम् एव प्रदर्शितम्।
अन्तरङ्गं बहुविधम् अस्ति इति पूर्वम् उक्तम् अस्ति, अन्तर्भूतत्वं बहुविधम् अस्ति, अन्तरङ्गं बहुविधम् अस्ति इति कारणतः एव तत्र मतभेदाः सन्ति। अन्तरङ्गप्रसङ्गः सर्वदा न आयाति, केवलं विरलतया एव अन्तरङ्गचिन्तनं भवति। अन्तर्भूतत्वं केवलं प्रकारद्वयमेव प्रदर्शितं। प्रकारद्वयं किम्?
प्रकारद्वयं, प्रथमप्रकारं पूर्वोपस्थितनिमित्तकतया भवति, पूर्वोपस्थितम् अन्तरङ्गं। द्वितीयम् अन्तरङ्गमस्ति अपरनिमित्तकम् अन्तरङ्गम्। प्रकारद्वयम् अस्ति एतदेव।
पूर्वोपस्थितनिमित्तक अन्तरङ्गप्रसङ्गे किञ्चित् वदतु।
पूर्वोपस्थितम् इत्युक्ते यत्र यत्र निमित्तानि पूर्वं भवन्ति तस्य तत् पूर्वोपस्थितनिमित्तं। यत्र निमित्तं बहूनि निमित्तानि सन्ति तत् समुदाये, यस्य सूत्रस्य निमित्तानि अन्तर्भूतानि भवन्ति तदेव पूर्वोपस्थितम् अस्ति। तत्र उदाहरणत्वेन अत्र स्योन इति पूर्वम् अस्माभिः स्वीकृतं, तत्र सिउ योगे न इति स्थिते सिउ योगे न इति स्थिते इको एणचि इति इत्यस्य निमित्तानि सिउ सिउ इत्येव आवश्यकं। सि उ इत्येव आवश्यकं, न इति आर्धधातुकप्रत्ययः अत्र आवश्यकमेव नास्ति इको एणचि इति सूत्रस्य। किमर्थं चेत् सिउ इत्यस्य गुणः भूत्वा स्यो इति भवति, स्यु इति भवति, इको एणचि इति न इति प्रत्ययः अत्र अनावश्यकं भवति। परन्तु पुगन्तलघुपदस्य च इति सूत्रस्य निमित्तं नकारः अपि आवश्यकमस्ति। सिउ योगे न इति अर्धधातुकप्रत्ययः अस्ति इति कारणात् अर्धधातुकप्रत्यये परे तत्र पुगन्तलघुपदस्य च इति सूत्रात् सियो इति भवति।
सिवु इति रूपं कथम् आगतम् इति प्रश्ने सति, तत्र छोः षूडनुनासिके च इति सूत्रस्य नित्यत्वात् तत् सूत्रं नित्यसूत्रमस्ति इति कारणतः नित्यत्वात् तस्य कार्यं भवति। तत्र वकारस्य स्थाने ऊठादेशः भूत्वा सिवु इति रूपं सिद्ध्यति। तत्र इको एणचि पुगन्तलघुपदस्य च अनयोर्मध्ये बलाबलचिन्तनं कुर्मः चेत् तत्र न इति प्रत्ययपर्यन्तं पुगन्तलघुपदस्य च सूत्रस्य कार्यार्थं निमित्तानि अपेक्षितानि। बहिरङ्गसूत्रनिमित्तात् पूर्वम् उपस्थितमस्ति, इकोयणचि इति सूत्रस्य निमित्तं पूर्वोपस्थितमस्ति। अपरनिमित्तकस्य प्रसङ्गे वदतु।
अपरनिमित्तकम् अन्तरङ्गं, तस्मध्ये आदेश उपदेशे अशिति उपदेशे शिति इति सूत्रे प्रथमं तत्र भागद्वयम् अस्ति। अत्र प्रथमभागे अस्माभिः अवगन्तव्यम् उपदेशे एजन्तधातोः आत्वं भवति, उपदेश अवस्थायाम् एजन्तस्य धातोः आत्वं भवति इति प्रथमः अर्थः भवति सिद्ध्यति। तदनन्तरम् अशितिप्रत्यये परे एजन्तस्य धातोः आत्वं न भवति इति द्वितीयः अर्थः। अत्र तत्र कुत्रापि न उक्तम् अशितिप्रत्यये परे इति निमित्तं, तत्र निमित्तं न भवति। अशितिप्रत्यये परे एव आत् प्रत्ययः भवति इति कुत्रापि न उक्तम् इति कारणात् तत्र निमित्तं नास्ति इति कारणतः तत् अपरनिमित्तकम् अन्तरङ्गं भवति।
इतोपि किं दत्तम् अस्मिन् परिच्छेदे?
अस्मिन् परिच्छेदे अत्र ओके अन्तर्मध्ये अस्मिन् परिच्छेदे वा ओके तत्र ओके अत्र अपरिनिमित्तकृत्या भवति अन्तरङ्गं बहुविधं भवति. प्रथमं पूर्वोपस्थनिमित्तकम् अन्तरङ्गं भवति, द्वितीयं तु अपरनिमित्तकम् अन्तरङ्गं भवति, कदाचित् ओके अन्यत् एतदपि भवति, कदाचित् तदीयसमुदायमध्ये भवति, कदाचित् एकपद वर्णद्वय अपेक्षतया भवति.
इतोपि भिन्नप्रकारक अन्तरङ्गत्वानि सन्ति, किन्तु तेषां प्रसङ्गे अस्माकं करपत्रे किमपि न उक्तमस्ति. इत्युक्ते एकपदवर्णद्वयापेक्षतया अपि अन्तरङ्गत्वं भवति, कदाचित् तदीयसमुदायमध्ये अपि भवति. अस्मिन् विषये किमपि न उक्तमस्ति अस्मिन् करपत्रे. इतोपि भिन्नप्रकारक अन्तरङ्गत्वम् अस्ति, किन्तु अस्मिन् करपत्रे न दत्तमस्ति इत्यतः न पठामः. अग्रे सरतु, अग्रिमपरिच्छेदं पठतु.
एकं सूत्रम् औत्सर्गिकं सामान्यम् अस्ति, अन्यत् अपवादभूतम् अस्ति चेत् अपवादः बलवान् भवति. उदाहरणम् उपरि दत्तं वृद्धिरेचि आद्गुणः इति सूत्रस्य वृद्धिरेचि इति सूत्रम् आद्गुणः इति सूत्रस्य अपवादः. अत्र यद्यपि वृद्धिरेचि इति परसूत्रम् अस्ति, तथापि विप्रतिषेधे परं कार्यम् इत्यनेन तस्य कार्यं न सिद्ध्यति. अनया परिभाषया सिद्ध्यति आद्गुणः इत्यस्य अपवादत्वात्. अत्र ओके सो अत्र औत्सर्गिकसूत्रस्य अपेक्षया अपवादसूत्रं सर्वदा बलवान् भवति इति बलवत् भवति.
अत्र पश्यतु, औत्सर्गिकम् इति दत्तमस्ति, तत्र प्रातिपदिकं किम् अस्ति?
उत्सर्गस्य भावः, उत्सर्गस्य भावः औत्सर्गिकम्.
उत्तमम्. अपवादभूतं सूत्रं, सूत्रम् इति अस्ति चेत् बलीयः, इत्यत्र येसुन् प्रत्ययान्तरूपम् अस्ति, किन्तु अत्र अपवादः बलवान् इति दत्तमस्ति. बलवान् इत्यत्र प्रत्ययः कः?
बलवान् मतु प्रत्ययः.
मतु प्रत्ययः. स्त्रीलिङ्गे किं भवति?
स्त्रीलिङ्गे बलवती इति भवति.
नपुंसकलिङ्गे?
नपुंसकलिङ्गे बलवत् इति.
इत्युक्ते मतु प्रत्ययः भिन्नः, इयसुन् प्रत्ययः भिन्नः. सूत्रं बलीयः इति वदामि चेत् बलीयः इति इयसुन् प्रत्ययान्तरूपम् अस्ति. सूत्रं बलवत् इति वदामि चेत् बलवत् इत्यत्र मतु प्रत्ययः अस्ति. सामान्य अपवादयोर्मध्ये भेदः अस्ति इति. सामान्य अपवादयोः भेदः कः?
सामान्य अपवादयोः भेदः अपवादसूत्रं तत्र यदि पूर्वं यदि सामान्यसूत्रम् अस्ति अपवादसूत्रं यत्र तस्मिन् स्थले यदि कार्यं न कर्तुं शक्यते चेत् कुत्रापि अत्र तस्य कार्यं न भवति, एवं तत् सूत्रं व्यर्थः भवति. तदेव अपवादसूत्रम्. अत्र आद्गुणः इति सूत्रं बहुषु स्थलेषु तस्य कार्यं भवति, परन्तु वृद्धिवेचि इति सूत्रं तस्य एच् इति एजन्तधातोः परे एव तस्य वृद्धिः भवति इति कारणतः वृद्धिरेचि इति सूत्रम् अपवादसूत्रम्. आद्गुणः इति सूत्रस्य अपेक्षया अपवादसूत्रम् अस्ति.
नीलं भगिनी, भवती वदतु, अपवादसूत्रम् उत्सर्गसूत्रम् अनयोर्मध्ये भेदः कः? भवती किं चिन्तयति अत्र वृद्धिरेचि आद्गुणः अनयोः प्रसङ्गे? इतोपि वदतु.
औत्सर्गिक अपि च अपवादसूत्रविषये तत्र किं भवति? तत्र निमित्तसमुदायः समानम् अस्ति. इत्युक्ते यः औत्सर्गिकसूत्रम् अस्ति तस्य यः निमित्तसमुदायः तत्र अपवादसूत्रस्य निमित्तसमुदायः तस्मिन् एव वर्तते. सो तत्र तादृश तत्र भेदः भवति. यथा आद्गुणः इति सूत्रे यः आत् परे यः गुणः भवति अचिपरे भवति, सो आत् अनन्तरं तत्र अचायति चेत् गुणः भवति, परन्तु वृद्धिरेचि इति वदति तत्र वृद्धिः एचि परे भवति. सो आत् तत्र आत् इति अहं चिन्तयामि तत्र तत्र आत् इति पदस्य तत्र किम् अनुवृत्तिः अस्ति. सो आत् परे एच् प्रत्याहारस्य वर्णः आयाति चेत् वृद्धिः करणीयं, परन्तु आत् परे कोऽपि अच् वर्णः आयाति चेत् इति औत्सर्गिकसूत्रं सामान्यसूत्रं वदति गुणकरणीयं. सो अच् एच् प्रत्याहारस्य एच् प्रत्याहारे ये निमित्तसमुदायः ते अचि मध्ये एव आयान्ति. सो यत्र यत्र आद्गुणः यत्र यत्र वृद्धिरेचि सूत्रस्य प्रसक्तिः तत्र तत्र सर्वदा आद्गुणः इति सूत्रस्य अपि प्रसक्तिः भवति. अतः तत्र तत्र अपवादत्वेन एव कार्यं करणीयं. सूत्रं तत्र सूत्रं निरवकाशः मा भवेत् इति तत्र अपवादस्य एव तत्र निरवकाशः अपवादस्य फलम् इति अस्ति. अतः निरवकाशः मा भवेत् इति तत्र अपवादस्य लक्षणम् अस्ति. सो तदा तत्र किं सर्वदा अपवादसूत्रद्वारा एव कार्यं करणीयं, न तु औत्सर्गिकसूत्रद्वारा. अतः तत्र औत्सर्ग अपवादः यः अस्ति तत् चिन्तनं तत्र तादृशं भवति. इत्युक्ते निमित्तसमुदायः समानम् अस्ति द्वयोः सूत्रयोः मध्ये. यत्र निमित्तसमुदायः एकस्मिन् एव वर्तते तत्र अपवाद यः आयाति, अपवाद इति चर्चा आयाति.
बहु सम्यक्. अहं किम् अवगतवती इति एकवारं वदामि. सामान्यसूत्रस्य कार्यक्षेत्रम् अथवा औत्सर्गिकसूत्रस्य कार्यक्षेत्रं बृहद् अस्ति, अपवादसूत्रस्य कार्यक्षेत्रं लघु अस्ति. अत्र आद्गुणः इति सूत्रस्य कार्यक्षेत्रं बृहत् अस्ति, वृद्धिरेचि सूत्रस्य कार्यक्षेत्रं लघु अस्ति. यत्र यत्र वृद्धिरेचि इति सूत्रं कार्यं कर्तुम् आयाति तत्र तत्र आद्गुणः अपि कार्यं कर्तुम् आगन्तुं शक्नोति. सर्वदा आद्गुणः इति सूत्रेण एव कार्यं कुर्मः चेत् वृद्धिरेचि इति सूत्रं व्यर्थं भवति. वृद्धिरेचि इति सूत्रं निरवकाशं मा भवतु इति तत्र आशयः. निरवकाशत्वम् एव अपवादस्य बीजं भवति. सूत्रं व्यर्थं मा भवतु इति मत्वा वृद्धिरेचि इति सूत्रेण तस्य अपवादबलेन कार्यं भवति. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा अस्ति खलु, तत्र अपवादानाम् उत्तरोत्तरं बलीयः इति उक्तमस्ति. इत्युक्ते अन्तिमं पदम् अपवादः, इत्युक्ते सर्वेषां सूत्राणाम् अपेक्षया अपवादसूत्रमेव सर्वदा बलवत् भवति. अपवादबलेन वृद्धिरेचि इति सूत्रस्य कार्यं भवितुं शक्नोति. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् इति उक्तमस्ति, इत्युक्ते अपवादसूत्रमेव सर्वदा बलवत् भवति. पूर्वपरप्रसङ्गे किम् उक्तमस्ति? शुभदा भगिनी भवती वदतु. परिभाषायां प्रथमतत्त्वद्वयं पूर्वपरप्रसङ्गः अस्ति. पूर्वपरप्रसङ्गे किं ज्ञातव्यं?
तर्हि पूर्वपर इति यदा सूत्रद्वयस्य प्रसङ्गः अस्ति एकस्मिन् स्थले एकस्मिन् काले अपि यदा सूत्रद्वयस्य प्रसङ्गः अस्ति अपि च तयोः अन्यत्र लब्धावकाशः अस्ति तदा ते द्वे सूत्रे
तुल्यबले
भवतः तुल्यबले सूत्रद्वयं तुल्यबलं भवति. अतः
तयोर्मध्ये विरोधः अस्ति तदेव तुल्यबलविरोधः, तदेव विप्रतिषेधः.
हा, तुल्यबलविरोधः अस्ति अतः तदेव विप्रतिषेधः इति उच्यते. अपि च तत्र विप्रतिषेधः भवति चेत् विप्रतिषेधे परं कार्यम् इति एकं सूत्रं तत्र कार्यं करोति. यत्र विप्रतिषेधः अस्ति चेत् पूर्वपरस्य प्रसङ्गे परसूत्रस्य कार्यमेव भवति इति तत्र पौर्वापौर्यभाव इति उच्यते तत्र. तावदेव भगिनि. पूर्वपरस्य
सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति चेत् विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रस्य कार्यं भवति खलु. किन्तु त्रिपाद्यां किं भवति? त्रिपाद्यां विप्रतिषेधे परं कार्यं सूत्रेण कार्यं भवति वा न वा? न भवति चेत् किमर्थं न भवति?
त्रिपाद्यां तु यत्र तत्र अन्यत् एका परिभाषा अस्ति, परिभाषा न सूत्रमस्ति पूर्वत्रासिद्धमिति. तेन सूत्रेण सपाद्य सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा, तत्तु एकः भागः. अन्य अपरं भागः अस्ति त्रिपाद्यामपि पूर्वसूत्रस्य प्रति परसूत्रम् असिद्धम्. अतः यत्र पूर्वसूत्रमपि च परसूत्रम् इत्यस्य प्रसङ्गः अस्ति चेत् तत्र परसूत्रम् असिद्धमेव भवति इति कृत्वा पूर्वसूत्रस्य एव प्रसङ्गः भवति. यथा सपादसप्ताध्याय्यां परसूत्रस्य बलवत्वं भवति, तस्य विपरीतरीत्या अत्र त्रिपाद्यां तु पूर्वसूत्रस्य एव बलवत्वं भवति, यतोहि परसूत्रम् असिद्धमेव पूर्वत्रासिद्धम् इत्यनेन.
त्रिपाद्यां पूर्वत्रासिद्धम् इति प्रथमं सूत्रमस्ति. त्रिपाद्यां पूर्वत्रासिद्धम् इत्यस्य अधिकारः अस्ति इति कारणतः सूत्रद्वयं त्रिपाद्याम् अस्ति चेत् विप्रतिषेधे परं कार्यं सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति इति विषयः. स्थितिद्वयं वदामि, भवती उत्तरं वदतु. सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति, तत्र किं चिन्तनं भवति? सूत्रद्वयमपि सपादसप्ताध्याय्याम् एव अस्ति,
तत्र पूर्वपर सूत्रस्य क्रमाङ्कः द्रष्टव्यं, सूत्रयोः क्रमाङ्कं द्रष्टव्यं. तदनन्तरं तस्य तुल्यबलविरोधः अस्ति वा न वा इति अपि द्रष्टव्यं. तदस्ति चेत् तत्र विप्रतिषेधः वर्तते. विप्रतिषेधः अस्ति चेत् विप्रतिषेधे परं कार्यम् इति सूत्रं तत्र कार्यं करोति, अतः परसूत्रस्य कार्यं भवति.
सूत्रद्वयं त्रिपाद्याम् अस्ति चेत् तत्र किं करणीयम्?
तत्र परसूत्रम् असिद्धमेव अस्ति. त्रिपाद्यां पूर्वसूत्रस्य प्रति परसूत्रम् असिद्धम् इति पूर्वत्रासिद्धम् इति अधिकारसूत्रं वदति. अतः परसूत्रम् असिद्धः भवति इति कृत्वा पूर्वसूत्रस्य कार्यमेव भवति.
उत्तमम्. एकं सूत्रं सपादसप्ताध्याय्याम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति, तदा किं चिन्तनं भवति?
तदापि पूर्वत्रासिद्धम् इत्यस्य अधिकारः भवति. पूर्वत्रासिद्धमिति अष्टमे अध्याये चतुर्थे पादे प्रथमं सूत्रम् इति मन्ये. तस्मात् पूर्वं यानि सूत्राणि भवन्ति तानि सर्वाणि सूत्राणां कृते पूर्वत्रासिद्धम् इत्यस्य परं यानि सूत्राणि वर्तन्ते तानि सर्वाणि असिद्धानि एव. सपादसप्ताध्याय्यां यानि सूत्राणि प्रवर्तन्ते तेषां सूत्राणां कृते त्रिपादीसूत्राणि सर्वाणि असिद्धानि एव.
तेषाम् अस्तित्वमेव नास्ति इति मन्तव्यम्. बहु सम्यक्. इत्युक्ते एकं सूत्रं सपादसप्ताध्याय्याम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति चेत् तदा पूर्वत्रासिद्धम् इति नियमेन सपादसप्ताध्यायीस्थं सूत्रमेव कार्यं करोति. अस्तु, इदानीं पूर्वपरप्रसङ्गे किञ्चित् ज्ञातवन्तः. सत्यभामा भगिनी, भवती वदतु, कृताकृतप्रसङ्गी विधिः, नित्यविधिः. नित्यप्रसङ्गे भवती किम् अवगतवती
इत्युक्ते नित्यं सूत्रं कथं भवति इति चेत् एकस्य सूत्रद्वयोः मध्ये एकस्य सूत्रस्य कार्यं कृत्वा अपि अथवा अकृत्वा अपि अस्य सूत्रस्य प्रसक्तिः अस्ति, तत् सूत्रं नित्यसूत्रम् इति वदामः.
इतोपि वक्तव्यं, विपरीतदिशि अपि द्रष्टव्यं खलु, उभयत्र द्रष्टव्यम्. इत्युक्ते उभयोः सूत्रयोः प्रसङ्गे उभयोः सूत्रयोः नित्यत्वम् अस्ति वा इति अपि द्रष्टव्यम्.
विपरीतदिशि इत्युक्ते एकसूत्र द्वितीयसूत्रस्यापि तादृशस्थितिः अस्ति वा इति
वदतु.
उदाहरणं अस्ति चेत् अत्र पुगन्धलघुपदस्य च अपि च
छोः षूडनुनासिके च
सूत्रद्वयोः मध्ये किं सूत्रं नित्यसूत्रम् इति पश्यामः चेत् अत्र छोः षूडनुनासिके च इति सूत्रस्य प्रसक्तिः, पुगन्धलघुपदस्य च इति सूत्रस्य कार्यस्य अनन्तरमपि भवितुम् अर्हति. परन्तु पुगन्धलघुपदस्य च इति सूत्रस्य कार्यं षोडशोडनुनासिके च इति सूत्रस्य अनन्तरं न भवितुम् अर्हति.
किमर्थं न भवति तत्र? तस्मिन् अवसरे पुगन्तलघुपदस्य च इति सूत्रं नित्यसूत्रं नास्ति इति ज्ञातं. किमर्थं नित्यसूत्रं नास्ति, किमर्थं तस्य कार्यं न भवति?
अत्र ऊट् इति आदेशः भवति खलु, अतः यदि तादृश आदेशः आदेशः भवति चेत् तदानीम् अत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः पश्चात् न भवति.
इत्युक्ते तस्यां दशायाम् इको एणचि इति सन्धिसूत्रम् आगत्य कार्यं कर्तुम् उद्युक्तं भवति. मध्ये इको एणचि इति सूत्रम् आयाति इति कारणतः इको एणचि पुगन्तलघुपदस्य च द्वयोर्मध्ये बलाबलचिन्तनं कुर्मः तस्यां दशायां, खलु? नूतनतया एकम् अन्यत् सूत्रम् आयाति तत्र, अपि च तस्य अन्तरङ्गत्वात् इको एणचि इति सूत्रस्य पूर्वोपस्थितनिमित्तक अन्तरङ्गत्वात् तस्य कार्यं भवति इत्यतः छोः षुडनुनासिके चेत् सूत्रस्य कार्यानन्तरं पुगन्तलघूपधस्य च सूत्रस्य कार्यं न भवति, अतः तत् सूत्रं नित्यसूत्रं नास्ति. अपि च अन्तरङ्गप्रसङ्गे भवती किम् अवगतवती?
तत्र सूत्रद्वयोः मध्ये निमित्तसमुदायेषु मध्ये यस्य निमित्तसमुदायस्य निमित्तानि न्यूनानि भवति तत् सूत्रम् अन्तरङ्गदामः. तदर्थमपि वयं सूत्रद्वयं स्वीकृतवन्तः. एकं तु पुगन्तलघुपदस्य च, द्वितीयमस्ति शोः षूडनुनासिके च. अत्र अस्य शोः षूडनासिके च
छोः षूडनुनासिके च इति सूत्रस्य नित्यत्वात् तस्य कार्यं भवति इति सोपानं भिन्नम्. अग्रिमे सोपाने इको एणचि पुगन्तलघुपदस्य च, तस्मिन् सोपाने एव अन्तरङ्गत्वात् इको एणचि कार्यं भवति, खलु?
तर्हि पुगन्तलघुपदस्य च इति इत्यस्मिन् सूत्रे पञ्चनिमित्तानि सन्ति इति वयं दृष्टवन्तः. इको एणचि इति सूत्रे अचि अस्ति चेत् तदेव निमित्तमस्ति, अतः अत्र एकः निमित्त न्यूनमस्ति इति कारणात् तद् अन्तरङ्गसूत्रम् इति दृष्टवन्तः.
पूर्वोपस्थितनिमित्तकम् इति वदति खलु?
पूर्वोपस्थितनिमित्तकम् इत्युक्ते तदर्थम् इतोपि अधिकं चिन्तितम्
इत्युक्ते तस्य कृते यद् निमित्तम् अचि इति निमित्तम्, अचि इति कथने तत्र ऊकारः एव निमित्तम् अस्ति, न इति प्रत्ययपर्यन्तसमुदायः अपेक्षितः पुगन्तलघुपदस्य च सूत्रस्य कार्यार्थं न पर्यन्तम् अपेक्षितम् अस्ति, किन्तु न इति निमित्तात् पूर्वम् ऊकारः उपस्थितमस्ति, पूर्वमेव उपस्थितमस्ति इति कारणतः तस्य नाम पूर्वोपस्थितनिमित्तक अन्तरङ्गम्. अन्यप्रकारक अन्तरङ्गमस्ति अपरनिमित्तकम् इत्युक्ते यस्य परनिमित्तं नास्ति तादृश अन्तरङ्गम्. आदेश उपदेशे शिति इति सूत्रं स्वीकृत्य परिशीलनं कृतवन्तः. अपवादप्रसङ्गे भवती किञ्चित् वदतु.
तत्र अत्रापि सूत्रद्वयम् अत्र आगच्छति. तयोः कस्य सूत्रस्य प्रसक्तिः बलाबलचिन्तनं कुर्मः चेत् कस्य सूत्रस्य सूत्रद्वयोः प्राप्तिः अस्ति, परन्तु यस्य सूत्रस्य प्राप्तिः अस्ति तस्मिन् समये एव एतादृशचिन्तनं कुर्मः. तत्र करम् अपवादबलेन कदा भवति इति चेत् यत्र एकस्य सूत्रस्य कार्यम् अस्मिन् कार्यक्षेत्रं लघु अस्ति, अपवादबलेन तदानीमेव अस्य कार्यं भवितुम् अर्हति, अन्यत्र सूत्रं व्यर्थं भवति, तस्मात् कारणात् अस्य सूत्रस्य तदानीं कार्यं भवति इति अपवादबलेन कार्यं भवति इत्यत्र.
इत्युक्ते सर्वदा औत्सर्गिकसूत्रेण एव कार्यं भवति चेत् अन्यत् सूत्रं व्यर्थं भवति, तथा मा भवतु इति मत्वा तत्र अपवादबलेन कार्यं भवति. निरवकाशत्वमेव अपवादस्य बीजं. सर्वेषां सूत्राणाम् अपेक्षया अपवादसूत्रस्य बलम् अधिकमस्ति. अपवादसूत्रं बलवत् भवति सर्वेषाम् अपेक्षया. अस्तु, इदानीं नरेश् महोदय भवान् पठतु अग्रे किं लिखितम्.
पूर्वपरनित्यान्तरङ्गापवादान् उत्तरोत्तर बलीय इति परिभाषायाः प्रथमद्वयं पूर्वपर विप्रतिषेधे परं कार्यम् इत्यस्य तात्पर्यं. तस्याः अग्रिमेण तत्त्वत्रयेन नित्यान्तर अङ्गापवादः इत्यनेन विप्रतिषेधे परं कार्यम् इति सूत्रं निषिध्यते. नाम नित्यान्तर अङ्गापवाद एषु अन्यतमः अस्ति चेत् तुल्यबलविरोधः नैव भवति. तुल्यबलविरोधः भावे परसूत्रस्य कार्यं पूर्वं न भवति. तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति. किन्तु नित्यान्तरङ्गपवाद इति शास्त्रेण विप्रतिषेधे परं कार्यम् इत्येन न. अत्र दत्तमस्ति परिभाषासूत्रम् अस्ति. तस्य प्रथमभाग तु पूर्वपर अस्ति. पूर्वपर अस्ति चेत् तत्र सूत्रं विप्रतिषेधे परं कार्यं करोति. यदि द्वे सूत्रे सः तत्र किमपि तुल्यबलविरोधः अस्ति तत्र विप्रतिषेधे परं कार्यं कर्तुं तत्र यत् सूत्रं परम् अस्ति तत् कार्यं करोति.
अस्यां परिभाषायां प्रथमपदद्वयं पूर्वपर इति उक्तमस्ति. इत्युक्ते प्रथमतत्त्वद्वयं तत्त्वद्वयेन इत्युक्ते पूर्वसूत्रं परसूत्रं पूर्वपरचिन्तनेन केन सूत्रेण तत्र निर्णयः भवति? विप्रतिषेधे परं कार्यं सूत्रेण तत्र निर्णयः भवति पूर्वपरप्रसङ्गः अस्ति चेत्. अग्रिमतत्त्वत्रयं किम्?
अग्रिम अस्ति नित्य अस्ति अन्तरङ्गम् अस्ति अपि च अपवादः अस्ति. तत् अस्ति चेत् विप्रतिषेधे परं कार्यं तु न कार्यम् अस्ति. तत्तु निषेधं भवति.
अस्य वाक्यस्य अर्थः कः? नित्यान्तरङ्ग अपवाद इत्यनेन विप्रतिषेधे परं कार्यम् इति सूत्रं निषिध्यते इति उक्तमस्ति. तस्य अर्थः कः?
यदि पूर्वपरं नास्ति तत्र नित्यान्तरङ्ग अपवाद अस्ति. अत्र परम् अपि च पूर्वं तस्य चिन्तनं व्यर्थम् अस्ति. तत् तु न कुर्मः. किं सूत्रं परमस्ति किं सूत्रं पूर्वम् अस्ति तत् चिन्तनं न भवति. अतः विप्रतिषेधे परं कार्यं तत् कार्यं न करोति.
उत्तमं. तदेव अहं भिन्नरीत्या वक्तुमिच्छामि. द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति चेदपि एकं सूत्रं नित्यसूत्रमस्ति चेत् तदा तत् नित्यसूत्रं पूर्वसूत्रं चेदपि तेन सूत्रेण एव कार्यं भवति. इत्युक्ते नित्यसूत्रं पूर्वसूत्रं चेदपि तयोर्मध्ये तुल्यबलविरोधः अस्ति चेदपि सूत्रयोः मध्ये एकं सूत्रं नित्यसूत्रं चेत् तत् नित्यसूत्रं पूर्वसूत्रं चेदपि तस्य कार्यमेव करणीयम्. अत्र विप्रतिषेधे परं कार्यं सूत्रेण निर्णयः न भवति इति खलु अर्थः? अग्रे वदतु.
अग्रे नाम नित्यान्तर अङ्गापवाद एषु अन्यतमः अस्ति चेत् तुल्यबलविरोधः नैव भवति. अत्र तुल्यबलविरोधः तस्य चिन्तनं न भवति.
इत्युक्ते तुल्यबलविरोधः अस्ति चेदपि द्वयोः सूत्रयोः एकं सूत्रम् अन्तरङ्गसूत्रम् अस्ति चेत् अन्तरङ्गत्वात् अन्तरङ्गसूत्रस्य कार्यमेव करणीयम्. अन्तरङ्गसूत्रमेव बलवत् भवति. यद्यपि सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति चेदपि इत्युक्ते द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति चेदपि एकं सूत्रम् अन्तरङ्गसूत्रं भवति चेत् अन्तरङ्गसूत्रेण एव कार्यं करणीयं. भवान् वदतु अग्रे.
अग्रे तुल्यबलविरोध भावे परसूत्रस्य कार्यं पूर्वं न भवति.
इत्युक्ते
अत्र तुल्यबलविरोधः नास्ति चेत् तत् परसूत्रस्य कार्यं परसूत्रं पूर्वं भवति तत् न भवति. अतः अत्र तत् तुल्यबल विरोधः नास्ति.
अपवादप्रसङ्गे भवान् वदतु. अपवादप्रसङ्गे तत्र तुल्यबलम् अस्ति वा नास्ति वा कथं वक्तव्यम्? एकं सूत्रम् अपवादसूत्रमस्ति, अन्यत् औत्सर्गिकसूत्रमस्ति. अपवाद औत्सर्गिकयोः मध्ये तुल्यबलम् अस्ति वा?
आम्, तत्र तुल्यबलविरोधः तु अस्ति.
चिन्तयतु, औत्सर्गिक अपवादयोर्मध्ये.
तत्र वयं पठितवन्तः आद्गुणः अपि च वृद्धिरेचि. तत्र द्वयोः सूत्र सूत्रे तत्र एकस्मिन् स्थले कार्यं भवति, परन्तु तत् यदि वृद्धिरेचि कार्यं न करोति, आद्गुणः कार्यं करोति. वृद्धिरेचि यत्र यत्र वृद्धिरेचि आगच्छति, आद्गुणः अपि आगच्छति. यदि आद्गुणः कार्यं करोति, वृद्धिरेचि तु तत्र व्यर्थं भवति.
तस्य अर्थः कः इत्युक्ते, द्वयोर्मध्ये तुल्यबलं नास्ति. स्वतन्त्रतया कार्यं कर्तुं वृद्धिरेचि सूत्रस्य कृते अवकाशः अन्यत्र कुत्रापि नास्ति.
अस्तु अस्तु.
सर्वत्र यत्र यत्र वृद्धिरेचि गच्छति, तत्र तत्र आद्गुणः अपि आगच्छति. इत्यतः द्वयोर्मध्ये तत्र तुल्यबलमेव नास्ति इति वक्तव्यं.
तदा तत् अपवादः भवति, वृद्धिरेचि अपवादः भवति.
अत्र आवरणे किञ्चित् दत्तं, तस्मिन् प्रसङ्गे वदतु.
तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति, किन्तु नित्यान्तरङ्गापवाद इति शास्त्रेण विप्रतिषेधे परं कार्यम् इत्यनेन न. अत्र परसूत्रस्य कार्यं भवितुम् अर्हति. तत्रापि एकं तु सूत्रं पूर्वमस्ति, द्वितीयसूत्रं परसूत्रम् अस्ति. तत्र वयं परसूत्रं विप्रतिषेधे कार्यं कर्तुं शक्नोति, परन्तु तत् न भवति. तत्र वयं प्रथम नित्या अस्ति, अपि च अन्तरङ्गम् अस्ति, अपवादः अस्ति, तत् चेत् वयं संख्या न द्रष्टनीयं. तत्र विप्रतिषेधे कार्यं न कर्तुं शक्नोमि.
इत्युक्ते केषुचित् स्थलेषु परसूत्रस्य कार्यं पूर्वं भवितुं शक्नोति, केषुचित् स्थलेषु परसूत्रस्य कार्यम् आदौ भवति, प्रथमतया भवति, किन्तु तत्र विप्रतिषेधे परं कार्यम् इति सूत्रेण न भवति. तत्र केन कारणेन भवति? पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषायाः कारणेन भवति. शुभदा भगिनी, भवती विवृणोतु, आवरणे यद्दत्तमस्ति तस्य अर्थः कः? महोदयः उक्तवान् एव, भवती अपि वदतु. साधु महोदय.
तत्र दत्तमस्ति, तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति, किन्तु नित्यान्तरङ्गापवाद इति शास्त्रेण विप्रतिषेधे परं कार्यम् इत्यनेन न. तत्र सूत्रद्वयस्य प्रसङ्गः यदा अस्ति, तत्र तुल्यबलविरोधः यदा न भवति, नाम यत्र एकस्मिन् सूत्रस्य लब्धावकाशः, क्षम्यताम्, एकस्मिन् सूत्रस्य निरवकाशत्वं भवितुम् अर्हति, अथवा तत्र एकस्मिन् सूत्रम् अन्यस्मिन् सूत्रे अन्यस्य सूत्रस्य अपेक्षया अन्तरङ्गं भवति, यथा अथवा नित्यसूत्रम् इति भवति, तदा पूर्वसूत्रपरं सूत्रम् अस्ति चेदपि तत्र परसूत्रस्य कार्यं भवितुम् अर्हति. परन्तु यथा महोदयेन उक्तमस्ति, यत्र सूत्रसङ्ख्या न द्रष्टव्यं, परसूत्रमस्ति अतः तस्य कार्यं भवति इति तु न, परन्तु तत् सूत्रं नित्यसूत्रं भवितुम् अर्हति वा, अन्तरङ्गसूत्रं भवितुम् अर्हति वा, अपवादसूत्रं भवितुम् अर्हति, अतः पूर्व परसूत्रस्य कार्यं भवति, न तु तुल्यबलविरोधः अस्ति, अतः विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रस्य कार्यं भवति इति तत्र स्वीकरणीयं नास्ति. तस्य परसूत्रस्य शीर्षकं तत्र अन्यत् भवितुम् अर्हति, नाम नित्यसूत्र वा अन्तरङ्गसूत्र वा अपवादसूत्रं वा इति।
बहु सम्यक्। सामान्यतया पूर्वपरयोः चिन्तनं यदा भवति तत्र विप्रतिषेधे परं कार्यं सूत्रेण परसूत्रस्य कार्यं भवति इति तु सत्यं, तुल्यबलविरोधः अस्ति इत्यतः परसूत्रस्य कार्यं भवति इति तु सत्यं, किन्तु केषुचित् स्थलेषु परसूत्रस्य कार्यं भवितुं शक्नोति। किमर्थं चेत् तत् परसूत्रं नित्यसूत्रमपि भवितुं शक्नोति, द्वयोः सूत्रयोः एकं सूत्रं नित्यसूत्रमस्ति चेत् नित्यसूत्रस्य कार्यमेव करणीयं, तत् नित्यसूत्रं परसूत्रमपि भवितुं शक्नोति। एवमेव कदाचित् तत् सूत्रम् अन्तरङ्गसूत्रं भवितुं शक्नोति, अन्तरङ्गसूत्रं सूत्रसङ्ख्यादृष्ट्या परसूत्रं भवितुं शक्नोति इत्यतः तत्र परसूत्रस्य कार्यं भवति चेदपि तत्र विप्रतिषेधेन तस्य कार्यं न भवति। कार्यं किमर्थं भवति परसूत्रस्य कार्यम् इत्युक्ते तत्रापि नित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषायाः कारणेन एव परसूत्रस्य कार्यं तत्र भवति। इत्युक्ते द्वयोर्मध्ये एकं सूत्रं नित्यसूत्रमपि परसूत्रं भवितुं शक्नोति, तादृशस्थितिः सम्भवति कदाचित्। अग्रे चित्रद्वयं दत्तमस्ति, सत्यभामा भगिनी चित्रं दृष्ट्वा भवती किम् अवगतवती वदतु।
अत्र पूर्व पर नित्य अन्तरङ्ग अपवादः, इदानीं सूत्रं वयं दृष्टवन्तः पूर्वपरनित्य अन्तरङ्ग अपवादसूत्र उत्तरोत्तरं बलीयः, तद् अत्र चित्ररूपेण दत्तमस्ति। इत्युक्ते अत्र कस्य
बलवत्वम् अस्ति
तत् सूत्रं,
कस्य बलवत्वम् अस्ति अथवा किं सूत्रं बलवत्
अन्यसूत्रस्य अपेक्षया बलवत् अस्ति, तद् एव वैशिष्ट्यम् अस्ति। इत्युक्ते अपवादसूत्रम् अन्यसूत्रस्य अपेक्षया बलवत् अस्ति इति कारणात् तस्य एव स्ट्रेङ्थ् अस्ति, शक्तिः इति अधिकं बलम् अस्ति, तस्मात् कारणात् तत् आदौ अत्र दत्तमस्ति। इतोपि पश्चात् अन्तरङ्गसूत्रस्य बलमस्ति, इतोपि नित्यसूत्रमस्ति, एतत् त्रयमेव एकस्मिन् गणे आगच्छति खलु भगिनि। पूर्वपर इति भिन्नचिन्तनमस्ति, नित्य अन्तरङ्ग अपवाद इति भिन्नचिन्तनमस्ति खलु, परिभाषायाम् अस्ति चेत् अपि पूर्वपर इत्यस्य विषये यदा कार्यं करोति तत्र विप्रतिषेधे परं कार्यम् इत्यनेन सूत्रसङ्ख्यादृष्ट्या वयं तत् करोति खलु, परन्तु नित्यान्तर आगच्छति तत्र चिन्तनं किञ्चित् भिन्नमस्ति।
इतोपि वदतु।
अपि च अत्रापि पश्यामः चेत् पूर्वपर इति अत्र प्रसङ्गः अस्ति चेत् अत्र अन्यचिन्तनं किमपि नास्ति, केवलं पूर्वपरचिन्तनं विप्रतिषेधे परं कार्यम् इति सूत्रेण अत्र कार्यं भवति। नित्यान्तरङ्गविषये अपि अत्रापि अपवादसूत्रः वा पूर्वपर तच्चिन्तनमपि न आगच्छति, अत्र पूर्वपरचिन्तनं नास्ति, परन्तु किं सूत्रं नित्यं तस्मिन् विषये एव चिन्तनं, तादृश यद् यत् सूत्रं नित्यसूत्रमस्ति तस्य अपेक्षया अन्तरङ्गसूत्रस्य बलवत्वम् अस्ति वर्तते।
परिभाषायां यत् उक्तमस्ति तदेव अत्र चित्ररूपेण उक्तमस्ति, पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् इति यः नियमः अस्ति परिभाषायां यदुक्तमस्ति तदेव अत्र चित्ररूपेण प्रदर्शितमस्ति, वदतु।
तदेव अत्र वर्तते, इत्युक्ते अत्र पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् अस्ति, सूत्रस्य अपेक्षया नित्यसूत्रं बलवत्, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् इति अस्य परिभाषायाः अर्थः। इत्युक्ते पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इत्यस्य अर्थः।
बलीयः इति उक्तमस्ति, बलीयः इति कस्मिन् लिङ्गे अस्ति?
बलीयः बलवत् इति अस्ति, बलीयः इति नपुंसकलिङ्गः अस्ति,
नपुंसकलिङ्गे अस्ति। स्त्रीलिङ्गे किं रूपं सिद्ध्यति इयसुन् प्रत्ययान्तपदम्?
बलीयसि
उत्तमं पुंलिङ्गे बलीयान् इति भवति मतु प्रत्ययः अस्ति चेत् त्रिषु लिङ्गेषु रूपाणि वदतु पुंलिङ्गे बलवान् नपुंसकलिङ्गे बलवत् स्त्रीलिङ्गे बलवती पारिभाषिकः नियमः इति उक्तमस्ति किमर्थं तथा किमर्थम् एवं लिखितमस्ति अयं नियमः कुतः आगतः
पारिभाषिकशब्द अत्र यत् उक्तमस्ति तत् स्वीकृत्य वा
परिभाषातः अयं नियमः आगतः सा परिभाषा खलु सूत्रं नास्ति खलु पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति सूत्रं नास्ति परिभाषा अस्ति परिभाषाः कुत्र सन्ति परिभाषेन्दुशेखरः इति ग्रन्थे सन्ति नागेशभट्टेन सः ग्रन्थः लिखितः इति अग्रे सरेम पूर्वत्र सिद्धं नरेश महोदय पठतु
पूर्वत्र असिद्धम् अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः भागद्वये विभजितः प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः अष्टमाध्यायस्य द्वितीयः तृतीयः चतुर्थश्च पादाः मिलित्वा द्वितीयभागः प्रथमभागस्य नाम सप्ताध्यायी द्वितीयभागस्य नाम त्रिपादी अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्याय्यां सन्ति तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति तानि प्रति परं स्थितानि सूत्राणि असिद्धानि सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा त्रिपाद्याम् अपि पूर्वं प्रति परं शास्त्रमसिद्धम् त्रयाणां पादानां समाहारः त्रिपादी द्विगुसमासः सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी पादेन सहिता सपादसप्ताध्यायी पूर्वस्मिन् इति पूर्वत्र न सिद्धम् असिद्धम् पूर्वत्र अव्ययम् असिद्धम् प्रथमान्तम् द्विपदं सूत्रम् इदं सूत्रम् अधिकारसूत्रम् अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते अत्र सूत्रं पूर्वत्र असिद्धं विषयदत्तमस्ति अष्टाध्याय्या तस्य भागद्वयं स्तः
भागद्वयम् अस्ति
भागद्वयम् अस्ति आम्
सूत्रसङ्ख्यां वदतु
अष्टम अध्याये द्वितीयपादे प्रथम सूत्रम्
वदतु
अत्र अस्ति प्रथमाध्याये आरम्भतः अष्टमाध्याये प्रथमपादे तत्र पर्यन्तम् अष्टाध्याय्याः प्रथमभागः अस्ति
प्रथमभागस्य नाम किम्
प्रथमभागस्य नाम सपादसप्ताध्यायी अस्ति
किमर्थं सपादसप्ताध्यायी इति उक्तमस्ति विग्रहवाक्यं वदतु सप्ताध्यायी
सप्ताध्यायी तत्तु समासः अस्ति तत्र सप्त अध्याये सन्ति अपि च अष्टम अध्यायस्य प्रथम अध्याय प्रथम भाग अपि अस्ति अतः प्रथमपादः अस्ति अतः तत् सपाद सपादसप्ताध्यायी भवति.
सप्ताध्यायी इति पदं समस्तपदमस्ति. सप्ताध्यायी इत्यत्र द्विगुसमासः अस्ति. तत्र विग्रहवाक्यं सप्तानाम् अध्यायानां समाहारः इति विग्रहवाक्यं भवति. सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी. पादेन सहिता इत्यतः सपाद इति रूपमपि आयाति. सपादसप्ताध्यायी द्विगुसमासः अस्ति. द्वितीयभागस्य नाम
त्रिपादी. तत्र त्रीणि पादानि पादाः सन्ति. अष्टमाध्याये द्वितीय पाद, तृतीयपाद अपि च चतुर्थ पाद सन्ति.
त्रिपादी इति पदमपि समस्तपदं. तस्मिन् पदे अपि द्विगुसमासः अस्ति. विग्रहवाक्यं
तत्र त्रीणि पादानि सन्ति. विग्रह किमस्ति
सुन्दरमहोदय? भवान् वदतु त्रिपादी इति समस्तपदस्य विग्रहवाक्यं वदतु. द्विगुसमासः अस्ति.
त्रयाणां पादानाम् इति
वदतु. त्रयाणां पादानां समाहारः. अत्र एव लिखितमस्ति त्रयाणां पादानां समाहारः त्रिपादी. तस्मिन् पदे अपि द्विगुसमासः अस्ति. नरेश महोदय भवान् वदतु इतोपि अत्र किं लिखितम्?
अत्र अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्यायां सन्ति तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि. यानि सूत्राणि प्रथमभागे यानि सपादसप्ताध्यायां सन्ति तत्प्रति तु त्रिपाद्यां स्थितां स्थितानि सूत्राणि असिद्धं भवति.
स एव विषयः. भिन्नरीत्या वक्तुमिच्छामश्चेत् सपादसप्ताध्याय्यां यानि सूत्राणि सन्ति तानि प्रति त्रिपादिस्थानि सूत्राणि असिद्धानि, अथवा त्रिपाद्यां यानि सूत्राणि सन्ति तेषाम् अस्तित्वमेव नास्ति. पूर्वसूत्रं प्रति परसूत्रस्य अस्तित्वमेव नास्ति. इत्युक्ते सपादसप्ताध्यायीस्थानि सूत्राणि प्रति त्रिपादिस्थानि सूत्राणि असिद्धानि, तेषाम् अस्तित्वं नास्ति. अथवा परसूत्रस्य कार्यं पूर्वसूत्रं न पश्यति. परसूत्रस्य कार्यं पूर्वसूत्रं न पश्यति, अथवा पूर्वसूत्रस्य दृष्ट्या परसूत्रस्य अस्तित्वमेव नास्ति. भवान् वदतु.
अपि च अष्ट द्वितीयभागे अपि यत् त्रिपादी अस्ति तत्रापि परसूत्रं पूर्वसूत्रं प्रति असिद्धं भवति. तत् सूत्रस्य कार्यं न भवति. परं सूत्रं त्रिपाद्यां तत् अस्ति.
उत्तमम्. अस्मिन् सूत्रे पदद्वयमेव अस्ति, पूर्वत्र असिद्धम्. एतत् पदद्वयं दृष्ट्वा एतादृश अर्थः कथं निष्पन्नः इत्युक्ते पूर्वत्र असिद्धम् इति केवलं पदद्वयमेव अस्ति. एतत् पदद्वयं दृष्ट्वा ईदृश अर्थः कथं सिद्ध्यति, ईदृशार्थः कथं निष्पन्नः भवति?
तत्तु मम संशयः अस्ति. तत् नाम कथम् अस्ति पूर्वत्र असिद्धम्? अत्र दत्तम् अस्ति पूर्वस्मिन् इति पूर्वत्र, परन्तु मम अवगमनम् अस्ति पूर्वत्र तु पूर्वे अस्ति. पूर्वत्र असिद्धं कथम् अस्ति?
शुभदा भगिनी भवती वदतु. अत्र केवलं पदद्वयमेव अस्ति पूर्वत्र असिद्धम्. अस्मिन् सूत्रे अंशद्वयमस्ति, विषयद्वयमस्ति. सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा, त्रिपाद्याम् अपि पूर्वसूत्रं प्रति परसूत्रम् असिद्धम्. एतादृश अर्थः कथं सिद्ध्यति पदद्वयेन अत्र?
सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा इति भवति, अपि च त्रिपाद्यामपि पूर्वशास्त्रं प्रति परं शास्त्रम् असिद्धम्. अत्र एतत् सूत्रं वदति पूर्वम् अत्र असिद्धं, पूर्वम् अत्र असिद्धम् इति. प्रत्येकं सूत्रस्य कृते तत् सूत्रमेव अन्तिमं सूत्रं, तदनन्तरं किमपि न वर्तते. अतः किं वदामि
इतोपि किं चिन्तनं कर्तुं शक्नुमः इत्युक्ते सपादसप्ताध्यायी इति एकः ग्रन्थः, त्रिपादी इति अन्यः ग्रन्थः इति अन्यत् पुस्तकम् इति चिन्तयन्तु. सपादसप्ताध्यायी इति ग्रन्थस्य दृष्ट्या त्रिपादी इति ग्रन्थः एव नास्ति इति चिन्तयितुं शक्नुमः. भवती वदतु.
तर्हि सपादसप्ताध्याय्यां यानि सूत्राणि सन्ति ते सर्वे तानि सर्वाणि सूत्राणि चिन्तयन्ति यत् तस्मात् परं किमपि नास्ति. त्रिपादी तत्र नास्ति एव. त्रिपादी त्रिपाद्याः अस्तित्वमेव तत्र नास्ति. त्रिपादी अस्तित्वे नास्ति एव. अतः अपि च त्रिपाद्यां यानि सूत्राणि सन्ति प्रत्येकं सूत्रं चिन्तयन्ति यत् अहमेव अष्टाध्याय्यां तु अहमेव अन्तिमं सूत्रं, मम परं किमपि नास्ति, अहमेव तत्र किमपि कार्यं भवनीयं चेत् मम कृते मया एव भवितव्यम् इति. अतः पूर्वम् अत्र असिद्धम् इति तस्य विग्रहः इति मन्ये.
पूर्वत्र इत्युक्ते पूर्वस्मिन्, अस्मिन् ग्रन्थे पूर्वभागः सपादसप्ताध्यायी अस्ति, सः एकः ग्रन्थः इति चिन्तयामश्चेत्, त्रिपादी इति अन्यग्रन्थः इति चिन्तयामश्चेत्, प्रथमभागस्य दृष्ट्या त्रिपादी इति भागस्य अस्तित्वमेव नास्ति इति चिन्तनमस्ति. अपि च न सिद्धम् असिद्धं, तत्रापि नञ् तत्पुरुषसमासः अस्ति. यत्र यत्र नञ् तत्पुरुषसमासः अस्ति तत्र नञ् इति शब्दस्य प्रसज्यप्रतिषेधार्थः अस्ति वा पर्युदासार्थः अस्ति वा इति अपि चिन्तनं करणीयं, खलु?
सत्यं भगिनि.
तत्र भवती किं चिन्तयति?
तत्र प्रसज्यप्रतिषेधः अस्ति इति मम अल्पमतेः चिन्तनं सम्यक् रीत्या न जानामि, परन्तु तत्र असिद्धं किमपि तत्र न भवति. त्रिपादी तत्र त्रिपाद्याः अस्तित्वम् एव तत्र नास्ति, किमपि नास्ति. पर्युदासः भवति चेत् त्रिपाद्या किमपि त्रिपाद्याः सदृशं किमपि तत्र भवितुम् अर्हति, परन्तु अत्र किमपि नास्ति एव. अतः तत्र प्रसज्य प्रतिषेधः अस्ति इति मन्ये.
एतदपि चिन्तनीयं. कोऽपि जानाति चेत् वदतु अस्य उत्तरं किम् अस्ति. असिद्धम् इत्यस्मिन् नञ् तत्पुरुषसमासः अस्ति. तत्र नञ् इति शब्दस्य कीदृशार्थः स्वीकृतः अस्मिन् सूत्रे इति चिन्तनीयमस्ति. सुन्दरमहोदय, भवान् वदतु. पूर्वत्र असिद्धम् इति सूत्रेण विषयद्वयम् उच्यते. विषयद्वयं किम्?
विषयद्वयं प्रथमविषयः अस्ति पूर्वत्र पूर्वस्मिन् भागे इत्युक्ते सपादसप्ताध्यायी भागे यत् सूत्रमस्ति तत् सूत्रं प्रति त्रिपाद्यां यत् सूत्रमस्ति तत् असिद्धं भवति. तद् एकः विषयः. द्वितीयः विषयः अस्ति त्रिपाद्यायाः मध्ये प्रथमसूत्रं पूर्वसूत्रं प्रति परं सूत्रम् असिद्धं भवति. तदपि अस्मिन्नेव सूत्रे तदपि गृहीतव्यम्. एवं तृतीयमपि अस्ति पूर्व दट् इस् सप्ताध्यायी सपादसप्ताध्यायी प्रति त्रिपादीयां यः कोऽपि सूत्राणि सन्ति तत् सर्वमपि असिद्धं भवति.
अहं पूर्वं पृष्टवती, पुनः पृच्छामि. सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति, भवान् तदा किं करोति?
सूत्रं सपादसप्ताध्याय्यां सूत्रद्वयमपि अस्ति तत्र परं सूत्रमेव गृहीतव्यं. तत्र पूर्वपर अस्ति किल, पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः तस्मिन्नेव परिभाषायां उपयोगेन तदेव विप्रतिषेधे परं कार्यं परन्तु
सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति चेत् तदा विप्रतिषेधे परं कार्यम् इति नियमेन परसूत्रस्य कार्यं भवति. सूत्रद्वयं त्रिपाद्याम् अस्ति तदा किं करणीयम्?
तदा प्रथमसूत्रं प्रति पूर्वसूत्रं प्रति परं सूत्रम् असिद्धमेव भवति. तस्य कृते अस्तित्वमेव नास्ति. पूर्वसूत्रं प्रति परं सूत्रस्य अस्तित्वमेव नास्ति. प्रथम परं सूत्रेण कृतं कार्यं पूर्वसूत्रं न पश्यति एव.
अतः पूर्वसूत्रस्य कार्यमेव करणीयम्. अपि च एकं सूत्रं सपादसप्ताध्याय्याम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति, तदा किं करोति?
तदा सपादसप्ताध्यायीं प्रति त्रिपाद्यां यत् सूत्रम् अस्ति तत् असिद्धं भवति. तद् तस्य कार्यम् एतत् पूर्वसूत्रं न पश्यति एव. तस्य कार्यमेव न पश्यति, असिद्धमेव भवति.
अतः सपादसप्ताध्यायीस्थं सूत्रं कार्यं करोति. यत् सूत्रं सपादसप्ताध्याय्याम् अस्ति तेन सूत्रेण एव कार्यं कुर्यात्. अस्तु महोदय, साधु.
भगिनि, परन्तु मम प्रश्नः अस्ति, त्रिपाद्यां तु परसूत्रम् असिद्धम् अस्ति, अत्र पूर्वत्र असिद्धं कथं दत्तम् अस्ति? पूर्वत्र असिद्धं
पूर्वत्र इति कथनेन पूर्वं यत् सूत्रम् अस्ति तत् सूत्रं प्रति अग्रिमं सूत्रम् असिद्धम्. पूर्वं यत् सूत्रं दत्तम् अस्ति तत् सूत्रं प्रति परसूत्रम् असिद्धम् इति अर्थः अस्ति. इतोपि समीचीनतया वक्तव्यं. शुभदा भगिनी, प्रयत्नं करोतु.
आं भगिनि, किञ्चित् क्लिष्टम् अस्ति अत्र तु. पूर्वत्र सिद्धं पूर्वस्मिन् यानि सूत्राणि सन्ति तेषां प्रति परसूत्राणि असिद्धानि इति. पूर्वत्र डजन्ट् मीन् पूर्वसूत्रम् अत्र असिद्धम् इति न. पूर्वसूत्रम् असिद्धम् इति प्राथमिकदृष्ट्या तत्तु तत्तु दृश्यते, परन्तु तत्तु तत्तु न सत्यं, तत्तु न भवति. पूर्वं सूत्रम् अत्र असिद्धम् इति तु न, परन्तु पूर्वस्मिन् यानि सूत्राणि वर्तन्ते तेषां सूत्राणां कृते परसूत्रम् असिद्धम् इति तस्य अर्थः.
बहु सम्यक्. नीलं भगिनी, भवती वदतु, अग्रिमपरिच्छेदं पठित्वा किञ्चित् वदतु.
पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधं, शास्त्रसिद्धं कार्य असिद्धं च. द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्र असिद्धम् इति उच्यते. पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायीसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते. एवं यतः तेन परत्रिपादिसूत्रेण यत् कार्यं यत्किमपि क्रियते तत् पूर्वत्र सिद्धम् इत्यनेन असिद्धम्. इदं कार्यासिद्धम् इति उच्यते. इत्युक्ते पूर्वत्र असिद्धं यः अस्ति तत्र असिद्धम् इत्यनेन शास्त्रसिद्धम् अपि च कार्यसिद्धम् इति तत्र द्विविधं भवति. पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधं. शास्त्रसिद्धं वदामः चेत् तत्र यदि तत्र एकस्मिन् काले तत्र परत्रिपादिसूत्रम् अपि च सपादसप्ताध्यायीसूत्रम् आयाति चेत् तत्र यः परस्त्रिपादिसूत्रम् अस्ति सः स्वयम् असिद्धं भवति, किमर्थं चेत् पूर्वप्रतिपर असिद्धम्। अतः तस्य तादृशकार्यस्य नाम शास्त्र असिद्धं, सूत्रं स्वयम् असिद्धं भवति तत्र। परन्तु यत्र तत्र किञ्चित् कस्मिंश्चित् पदनिर्माणार्थं तत्र एकं सूत्रद्वारा कार्यं कारितं चेत् प्रथमे एव तत्र कार्यं कारितं चेत् तत्पश्चात् तत्र कोऽपि तत्र सपाद सप्ताध्यायीसूत्रम् आयाति, अथवा तस्य पूर्वे यत् त्रिपाद्यां तत्र सूत्रं वर्तते तस्य कार्य तस्य प्रसक्तिः भवति चेत् तादृशसूत्रं तत् यः पूर्वे कार्यं कारितं तत् न दृश्यते, तस्य कृते तत् कार्यं न दृश्यते। अतः तस्य नाम अस्ति कार्यसिद्धं। सो तत्र यदा तत्र यः तत्र प्रायशः यः सन्धिकार्यं यः विसर्गसन्धिकार्यम् अस्ति, विसर्गसन्धिकार्यं यदि तत्र पूर्वे एव भवति अनन्तरं तत्र किं तत्र अनन्तरं तत्र अच् सन्धि पुनः न भवति, किमर्थं चेत् तत् कार्यसिद्धम् अस्ति। यथा वयं दृष्टवन्तः तत्र यः एकं सूत्रम् अस्ति प्रकृतसूत्रं,
चिन्ता मास्तु, पूर्वत्रासिद्धम् इति सूत्रस्य कार्यं द्विविधम् अस्ति। अस्य कृते उदाहरणानि अग्रिमे सप्ताहे तेषां परिशीलनं करिष्यामः, समयाभावात् अग्रिमे सप्ताहे तस्मिन् प्रसङ्गे चिन्तनं करिष्यामः। अत्र कारितम् इति पदं दत्तमस्ति, तत्र के के प्रत्ययाः सन्ति? वदतु महोदय, कारितम् इत्यत्र के के प्रत्ययाः सन्ति?
णिच् प्रत्ययः अस्ति, एवम् इक्तप्रत्ययः अपि अस्ति।
प्रक्रियां वदतु।
क्रीधातुतः णिच् प्रत्ययस्य योजनेन क्रियोगे णिच् इति भवति, कारि प्रथमं कारि इति भवति।
क्रु इति अजन्तधातुः अस्ति इति कारणतः केन सूत्रेण वृद्धिः भवति?
अजन्तधातुः आत्
अचोयिणिति
इति सूत्रेण कार् भवति, वृद्धिः भूत्वा कृ कार् भवति, कार् योग्ये तस्य प्रत्ययस्य इ इति भवति, कारि कार् योगे इ कारि इति भवति। णिच् प्रत्ययस्य णकारचकारयोः अनुबद्धलोपे सति इ एव अवशिष्यते, कार् योगे इ कारि इति भवति, आतिदेशिक धातुः कारि योगे इक्तप्रत्ययः आगच्छति योजनेन, कारि योगे तप्रत्ययस्य योजनेन कारितः इति भवति, कारितः कारितम् इति नपुंसकलिङ्गम् इति कृत्वा कारितं कार्यम् इति भवति।
णिच् अस्ति इति कारणतः कारितम् इति रूपम् अस्ति, णिच् नास्ति चेत् किं रूपम्?
कृतम् इति भवति।
उत्तमम्, क्रू धातोः रूपमेव, णिच् अस्ति चेत् कारि इति नूतनधातोः निर्माणं भवति, तस्मात् अन्येषाम् अर्धधातुकप्रत्ययानां योजनेन आर्धधातुककृदन्तरूपाणि साधयितुं शक्नुमः। एवमेव उपरितने परिच्छेदे विभजितः इति लिखितम् अस्ति, तत्र कः प्रत्ययः अस्ति?
विभज् वि पूर्वक भज् धातोः प्रत्ययः, एवं तत्र विभजितः तत्र इकारः इडागमः अपि भवति विभजितः।
अत्र तु णिच् नास्ति, णिच् भवेत् चेत् विभाजितः भवेत्, अत उपधायाः भवेत् तत्र, अत्र तु विभजितः तत्र नास्ति,
णिच् नास्ति, णिच् नास्ति, किन्तु विभक्तः इति पदमस्ति, भज् धातोः रूपमेव भक्तः।
आम्, चुहोकु इत्यनेन गकारः भवति, तदनन्तरं खरीच इत्यनेन ककारः भवति, विभक् अपि च त विभक्त इति भवति, भज् इति अनिट् धातुः, तत्र इडागमः न भवति इति मन्ये तत्र, परन्तु विभजितः अत्र तु इडागमः दृश्यते,
एक लघु सन्देश संशय भगिनि अत्र सियोन इति पदम् अस्ति किल तत्र तत्र इको प्रथमं श्वोः शूदनुनासिके च एवं पुगन्तलघुपदस्य च द्वयोः मध्ये नित्यसूत्रं किं सूत्रम् इति अस्माभिः परिशीलितवन्तः तत् परिशीलित अत्र इको एनचि इति सूत्रं मध्ये आगच्छति मध्ये आगत्य तयोः मध्ये तयोः मध्ये किं सूत्रं बलवत् भवति इति अस्माभिः कृतम् अधुना मम प्रश्नः एतद् अस्ति तत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं किमर्थं तत्र न आगच्छति तृतीयं सूत्रमपि किमर्थं चेत् न इति अर्धधातुकप्रत्ययः एवं सि उ इति इगन्तधातुः इगन्तधातुः अत्र इगन्तधातुः अर्धधातुक प्रत्ययस्य अस्ति चेत् सार्वधातुक अर्धधातुकयोः इति सूत्रमपि तत्र कार्यं कर्तुम् उद्युक्तः भवति किल
तस्य प्रसक्तिः अस्ति किन्तु तस्य कार्यक्षेत्रं भिन्नम् अस्ति इको एणचि अपि च पुगन्तलघुपदस्य च तत्र कार्यक्षेत्रं समानम् अस्ति सिवु इति कथनेन तत्र ऊकारः अन्ते अस्ति इति कारणतः सिवु इति इगन्तम् अङ्गमेव ऊकारस्य स्थाने कार्यं भवति इत्यतः तत्र सार्वधातुकार्धधातुकयोः प्रसक्तिः अस्ति किन्तु कार्यक्षेत्रं भिन्नम् अस्ति
कार्यक्षेत्रम् अत्र नास्ति वा किमर्थं भिन्नं
सिवु इत्यत्र ऊकारान्तम् अङ्गम् अस्ति ऊकारान्तं धातुरूपी अङ्गम् अस्ति ऊ इत्यस्मिन् स्थाने एव सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यम् अग्रे भवति गुणकार्यं भवति चेदेव स्योन इति रूपं सिद्ध्यति गुणः भूत्वा
तत्तु परम् अस्ति अत्र अत्र अहं पृच्छामि अत्रैव तस्य कार्यक्षेत्रम् अस्ति किल अत्रैव सि उ योगे न इति अर्धधातुकप्रत्ययः अर्धधातुकप्रत्यये परे इगन्तम् अङ्गम् अस्ति चेत् एतत् अङ्गकार्यम् इगन्तम् अङ्गम् अस्ति चेत् तत्र पुगन्तलघुपदस्य च इव सार्वधातुक अर्धधातुकयोः इति सूत्रमपि तत्र कार्यं कर्तुम् उद्युक्तः भवति किल
सार्वधातुक अर्धधातुकयोः इति सूत्रं पूर्वसूत्रमस्ति पुगन्तलघुपदस्य च इति सूत्रं परसूत्रमस्ति इत्यतः परत्वबलात् पुगन्तलघुपदस्य च इति सूत्रमेव कार्यं करोति इति चिन्तयितुं शक्नुमः तयोर्मध्ये बलाबलचिन्तनम् इत्युक्ते सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च अनयोर्मध्ये किं चिन्तनम् इति प्रश्ने सति द्वयोः कृते अन्यत्र लब्धावकाशः अस्ति अपि च सार्वधातुक अर्धधातुकयोः इति पूर्वसूत्रं पुगन्तलघुपदस्य च इति परसूत्रम् अस्ति इत्यतः परत्वबलेन तस्य कार्यं भवति इति चिन्तयितुं शक्नुमः पश्चात् इको एणचि पुगन्तलघुपदस्य च अनयोर्मध्ये इको एणचि सूत्रम् अन्तरङ्गम्
आम् आम् तदनन्तरं तु पश्यामि एव परन्तु एतद् विषयः तत्र न दत्तः
शुभदा भगिनी भवती तस्मिन् प्रसङ्गे भवती इतोपि वक्तुम् इच्छति वा महोदयेन यत् पृष्टं
न भगिनि किञ्चित् चिन्तनीयं मया तु
नीलं भगिनी भवती किञ्चित् वक्तुमिच्छति वा
कारणम् अस्ति इति मम चिन्तनं कोऽपि कारणं स्यात् एतत् किमर्थं न दत्तम् इति
सार्वधातुक अर्धधातुकयोः सूत्रस्य प्रसक्तिः अपि तत्र भवितुं शक्नोति किमर्थं चेत् सिवु इत्यत्र ऊकारान्तम् अङ्गम् अस्ति ईगन्तम् अङ्गम् अस्ति तस्मात् परम् अर्धधातुकप्रत्ययः अस्ति इत्यतः तस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः किमर्थं न भवति इति प्रश्ने सति पुगन्तलघुपदस्य च इति सूत्रं परसूत्रम् अतः परसूत्रं बलवत् भवति इति वक्तुं शक्यते नीलं भगिनी भवती वदतु
अहं चिन्तयामि पूर्वपरप्रसङ्गः एव अस्ति अन्यत्र किमपि नास्ति अतः तत्र न दत्तं तत्र केवलं अनन्तरं पुगन्तलघुपदस्य च अपि च इकोयनचि इति सूत्रमध्ये किं चिन्तनम् इति दत्तं परन्तु सार्वधातुकार्धधातुकयोः इति सूत्रस्य अपि प्रसक्तिः तत्र अस्ति
उत्तमं सम्यक् चिन्तनं कृतवन्तः पूर्वत्र सिद्धं प्रसङ्गे अत्र प्रदत्तानि उदाहरणानि पश्यन्तु. अस्तु, इदानीं विरमाम. सर्वेषां धन्यवादाः.